पूज्य दादा योगेश्वर ने गामवती स्वागत करे अने अमृतालयम मा तन्नी स्थापना करे।
सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवं विश्वन्नारायणं देवं अक्षरं परमं पदं विश्वतः परमान्नित्यं विश्वन्नारायणं हरिं विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतं नारायणं महाज्ञेयं विश्वात्मानं परायणम् नारायण परो ज्योतिः आत्मा नारायणः परः नारायण परं ब्रह्म तत्त्वन्नारायणः परः नारायण परो ध्याता ध्यानं नारायणः परः। यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः अनन्तमव्ययं कविं समुद्रेऽन्तं विश्वशम्भुवम् पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् अधो निष्ट्यावितस्त्यान्ते नाभ्यामुपरितिष्ठति ज्वालमालाकुलं भाति विश्वस्यायतनं महत्। सन्ततं शिलाभिस्तु लम्बत्याकोशसन्निभम् तस्यान्ते सुषिरं सूक्ष्मम् तस्मिन् सर्वं प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः सोऽग्रभुग्विभजन् तिष्ठन्नाहारमजरः कविः तीर्यगूर्ध्वमधशायी रश्मयस्तस्य सन्तता सन्तापयति स्वन्देहम् आपादतलमस्तकः तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः। नीलतो यदमध्यस्थाद् विद्युल्लेखेव भास्वरा नीवारशूकवत्तन्वी पीताभास्वत्यणूपमा तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्।